इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य दक्षिणाफ्रीका देशस्य जोहान्सबर्ग नगरे G20 शिखर सम्मेलने भागग्रहणानन्तरं षष्ठे भारत ब्राजील दक्षिणाफ्रीका सम्मेलने IBSA इत्यत्र भागं गृह्णाति। प्रधानमन्त्रिणा श्रीमोदिना दक्षिणाफ्रीका देशस्य राष्ट्रपतिना रामफोसा इत्यनेन सह द्वैपाक्षिकं मेलनं विहितम्। विदेशमन्त्री डॉ एस जयशंकरः युक्रेन देशस्य विदेशमन्त्रिणा आन्द्रेई सिबिहा इत्यनेन सह दूरभाषमाध्यमेन वार्तालापम् अकरोत्। सममेव सः संघर्षं शीघ्रमेव समापनाय चिरस्थायी शान्त्यै च भारतस्य समर्थनं प्रख्यापितवान्। केन्द्रीय वाणिज्योद्योगमन्त्री पीयूष गोयलः न्यगदत् यत् भारत इजरायल देशौ स्वप्रस्तावित मुक्त व्यापार सन्धिं द्वयोः चरणयोः प्रवर्तयितुं विचारयन्तौ स्तः। भारत ऋतु विभागेन आगामिषु पञ्च दिवसेषु पूर्वोत्तर भारते उत्तर प्रदेशे च न्यूनात मध्यम पर्यन्तं निहारस्य संभावना प्रकटिता अस्ति। अपि च बैडमिंटन क्रीडायां लक्ष्यसेनः सिडनी नगरे 25,000+ ऑस्ट्रेलियन ओपन पुरुष एकल उपाधिम् अवाप्नोत्। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना महत्वपूर्ण प्रौद्योगिकीनां प्रचारस्य मूलभूत परिवर्तनस्य आवश्यकतायाः विषये अवधानं प्रदत्तम्। जोहान्सबर्ग नगरे आयोजिते G20 शिखर सम्मेलने अफेयर एण्ड जस्ट फ्यूचर फॉर ऑल इति विषयमाधृत्य तृतीयं सत्रम् अभिसम्बोधितवान्। प्रोक्तवान् च यत् तन्त्रज्ञानं वित्तकेन्द्रितं न तु मानवकेन्द्रितं भवेत्, राष्ट्रियं न तु वैश्विकं भवेत् इति। नवदिल्ली G20 शिखरसम्मेलने प्रतिभायाः शीलतायाः विषये कृतप्रगतिं स्मरन् प्रधानमन्त्री मोदी आगामिषु वर्षेषु प्रतिभायाः चलनशीलतायाः वैश्विकसंरचनायाः स्थापनार्थं समूहः कार्यं करोति इति प्रस्तावितवान्। सः अवोचत् यत् भारत ब्राजील दक्षिणाफ्रीका IBSA न केवलं त्रिराष्ट्राणां समूह अपि तु त्रिमहाद्वीपानां त्रिप्रमुखलोकतन्त्राणां त्रिप्रमुख अर्थव्यवस्थानां च सम्बन्धः महत्वपूर्णः मञ्चः अस्ति। सः अवदत् यत् त्रयः देशाः परस्परं विकासस्य पूरकाः भवितुं शक्नुवन्ति इति, सुस्थिरवृद्धेः उदाहरणं स्थापयितुं शक्नुवन्ति। जोहान्सबर्ग नगरे IBSA आयोजितायां सभायां भाषमाणं प्रधानमन्त्री मोदी तृणधान्येषु प्राकृतिक कृषौ आपतस्थितिस्थापकतायां हरित ऊर्जायां पारम्परिक चिकित्सायां स्वास्थ्य सुरक्षायां च सहयोगस्य अवसरान् प्रख्यापितवान्। षष्ठं भारत ब्राजील दक्षिणाफ्रीका सम्मेलनं प्रधानमन्त्री नरेन्द्र मोदी राष्ट्रपतिः रामफोसा राष्ट्रपतिः लूला दि सिल्वा इत्येतेषां मध्ये समभवत्। अत्रान्तरे प्रधानमन्त्री मोदी इदानीं सह नेतृभिः सह सम्मिलित सममेव G20 शिखरसम्मेलने समापनदिवसस्य काले अफेयर एण्ड जस्ट फ्यूचर फॉर ऑल क्रिटिकल मिनरल्स इति विषये भाषणं विदधाति। अद्य शिखरसम्मेलनानन्तरं प्रधानमन्त्री जापानदेशस्य प्रधानमन्त्री सानेटाका, कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी, इटलीदेशस्य प्रधानमन्त्री जॉर्जिया मेलोनी इत्येतेषां सह अपि द्वैपाक्षिकं मेलनं करिष्यति। अत्रान्तरे गतरात्रौ वार्ताहरैः सह वार्तां कुर्वन् विदेशमन्त्रालयस्य सचिवः सुधाकर दलेला इत्येषः यः G20 कार्याणि अपि निरीक्षयति स्म, सः अवोचत् यत् G20 इत्यनेन दक्षिणाफ्रीकादेशस्य अध्यक्षेण चिह्नितानां चतुर्णां प्रमुख प्राथमिकतानां विषये दृढः सन्देशः दत्तः अस्ति इति।
इस वर्ष G20 ने दक्षिण अफ्रीका की अध्यक्षता में चार विशेष प्राथमिकताओं पर एक मजबूत संदेश दिया है। इनमें आपदा प्रतिरोधक क्षमता और प्रतिक्रिया को मजबूत करना, निम्न आय वाले देशों के लिए ऋण स्थिरता सुनिश्चित करना, सतत आर्थिक विकास के लिए महत्वपूर्ण खनिजों का दोहन और न्याय संगत ऊर्जा परिवर्तन के लिए धन जुटाना शामिल है।
प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषी यतन्त्रांशे अपि उपलब्धो भविष्यति। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः अद्य आन्ध्रप्रदेशस्य पुट्टपर्थी नगरस्य एसएसएस हिल व्यू क्रीडांगणे श्री सत्यसाई बाबावर्यस्य शतवार्षिक उत्सवेषु भागम् अभजत्। अस्मिन् अवसरे उपराष्ट्रपतिना श्री सत्यसाई बाबा शान्तेः प्रेमस्य निस्वार्थ सेवायाः च वैश्विक प्रतीकरूपेण प्रशंसितम्। सः अवोचत् यत् बाबावर्यस्य सन्देशाः सर्वेभ्यः प्रेमं कुर्वन्तु, सेवां कुर्वन्तु तथा सर्वदा सहयोगं कुर्वन्तु, कदापि मा पीडयन्तु इत्येतद् भावं च सम्पूर्णे विश्वे जनान् निरन्तरं प्रेरयन्ति। विदेशमन्त्री डॉ एस जयशंकरः युक्रेन देशस्य विदेशमन्त्रिणा आन्द्रेई सिबिहा इत्यनेन सह दूरभाषमाध्यमेन वार्तालापम् अकरोत्। सामाजिकान्तर्जालीये सन्देशे डॉ जयशंकरः रशिया युक्रेन विवाद सम्बद्धानां वर्तमान विकासेषु तस्य प्रस्तुत विवरणाय प्रशंसाम् अकरोत्। सः एनं संघर्षं शीघ्रमेव समापनाय चिरस्थायि शान्त्यै च भारतस्य समर्थनं प्रख्यापितवान्। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवदत् यत् भारत इजराइल देशौ स्वप्रस्तावित मुक्त व्यापार सन्धिं FTA द्वयोः चरणयोः प्रवर्तयितुं विचारयन्तौ स्तः, येन उभय देशयोः व्यापार समुदायस्य शीघ्रलाभः सुनिश्चितः भवेत्। सः अवदत् यत् FTA इत्यस्य प्रथमचरणं ते प्रकाशयितुं शक्नुवन्ति, येन ते शीघ्रं लाभान् अरप्स्यन्ति। श्री गोयलः अवदत् यत् भारतं विश्वस्मिन् हि विश्वे विश्वसनीय सहभागित्वेन उद्भूतमस्ति।
मुझे लगता है कि ये एक नए व्यापारिक संबंधों के दौर की शुरुआत। अब तो पहले तय करना होगा कि दोनों देशों को क्या मिल सकता है, इस FTA में से कैसे लाभ ले सकते हैं, क्या चीजों पे हम सहूलियत देंगे, चीजें अभी चर्चा में से निकलेंगी। एक संभावना है कि हम पहला फेज FTA का पहले तय कर लें और दो फेजेस में इस पूरे FTA को फाइनल करें।
भारत ऋतु विभागेन आगामीषु पञ्च दिवसेषु पूर्वोत्तर भारते उत्तर प्रदेशे च न्यूनात् मध्यम पर्यन्तं निहारस्य संभावना प्रकटिता अस्ति। विभागेन आगामी त्रिषु दिनेषु तमिलनाडु, पुदुच्चेरी, करैकल, केरल, माहे, लक्षद्वीप, अण्डमान निकोबार द्वीप समूहेषु प्रचण्ड वृष्टेः पूर्वानुमानं प्रकटितम्। अद्य अण्डमान सागरे दक्षिण पूर्व दिशि नैऋत्य बंगालखात्या अनेकेषु भागेषु च प्रचंड वायोः स्थितेः ऋतु विभागेन पूर्वानुमितम्। अत्रांतरे दिल्ली NCR क्षेत्रे वायुगुणवत्ता अत्यन्तं निकृष्टतम वर्गे एव अस्ति। बैडमिंटन क्रीडायां भारतीय शीर्ष क्रीडकः लक्ष्य सेनः सिडनी नगरे 25-2000 वर्षस्य ऑस्ट्रेलियन ओपन पुरुष एकल उपाधिं प्राप्नोत्। अयम् उपाधिः वर्षस्यास्य तस्य प्रथमोपाधिः वर्तते। लक्ष्यः अद्य अन्तिमश्रृङ्खलायां 26-श्रेण्यां जापानदेशस्य युशी तनाका इत्येनम् 21-15 इत्यङ्कान्तरालेन पराजयत्। अन्ते मुख्यवार्ताः पुनः एकवारम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य दक्षिणाफ्रीकादेशस्य जोहान्सबर्ग नगरे G20 शिखरसम्मेलने भागं गृह्णानन्तरं षष्ठे भारत ब्राजील दक्षिणाफ्रीका सम्मेलने इत्यत्र भागं गृह्णाति। प्रधानमन्त्रिणा नरेन्द्रमोदिना दक्षिणाफ्रीकादेशस्य राष्ट्रपतिना रामफोसा इत्यनेन सह द्वैपाक्षिकं मेलनं विहितम्। विदेशमन्त्री डॉ एस जयशंकरः युक्रेन देशस्य विदेशमन्त्रिणा आन्द्रेई सिबिहा इत्यनेन सह दूरभाषमाध्यमेन वार्तालापम् अकरोत्। केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः अवदत् यत् भारत इजराइल देशौ स्वप्रस्तावित मुक्त व्यापार सन्धिं द्वयोः चरणयोः प्रवर्तयितुं विचारयन्तौ स्तः। भारत ऋतु विभागेन आगामिषु पञ्च दिवसेषु पूर्वोत्तर भारते उत्तर प्रदेशे च न्यूनात् मध्यम पर्यन्तं निहारस्य संभावना प्रकटिता अस्ति। इति वार्ताः।